इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। विधानसभा निर्वाचनस्य परिणामानां घोषणानन्तरं पश्चिमबंग तमिलनाडु केरलं प्रदेशेषु च सर्वकारस्य निर्माणार्थं राजनैतिक क्रियाकलापानि आरभन्ते। भाजपेति दलस्य वरिष्ठः नेता अमितशाहः पश्चिम बंगाल राज्यस्य केन्द्रीय मन्त्री जेपी नड्डा च असम राज्यस्य केन्द्रीय पर्यवेक्षकत्वेन नियुक्तौ स्तः। बिहार राज्यस्य मन्त्रिमण्डलस्य विस्तारः मई मासस्य सप्तमे दिनांके भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी च अस्मिन् कार्यक्रमे भागं ग्रहीष्यति। प्रधानमन्त्री नरेन्द्र मोदी यूएई इत्यस्य फुजैराह क्षेत्रे आक्रमणस्य निन्दाम् अकरोत् यत्र त्रयः भारतीय नागरिकाः व्रणिताः अभवन्। सम्पूर्णे पश्चिम एशिया देशे शान्तिं स्थिरतां च पुनः स्थापयितुं संवादस्य कूटनीतेश्च आह्वानम् अपि अकरोत्। अमेरिका ईरान देशौ गल्फ क्षेत्रे नूतनानि आक्रमणानि आरभताम् यत्र उभौ पक्षौ होर्मुज जलसन्धिं नियन्त्रयितुं संघर्षरतौ स्तः। अपि च आईपीएल क्रिकेट क्रीडायां दिल्ली कैपिटल्स इति दलं दिल्ली नगरे चेन्नई सुपर किंग्स इत्येतं विरुध्य क्रीडिष्यति। अथ वार्ताः विस्तरेण। विधानसभा निर्वाचनानां परिणामानां घोषणायाः अनन्तरं तमिलनाडु केरलं राज्ययोः सर्वकारस्य निर्माणार्थं राजनैतिक प्रक्रियाः आरब्धाः सन्ति। तमिलनाडु राज्ये अभिनेत्रीतः राजनेता रूपेण परिवर्तितः सी जोसेफ विजयस्य तमिलगा वेट्री कजगम टीवीके इत्यनेन दलेन अष्टोत्तरैक शतासनानि जित्वा राज्ये बृहत्तम दलत्वेन उद्भूतमस्ति। दलस्य निर्वाचने प्रबल प्रदर्शनस्यानन्तरं नवनिर्वाचिताः टीवीकेति दलस्य विधायकाः चेन्नई नगरस्य समीपे पनायूरे दलस्य मुख्यालये उपवेशने श्रीविजयाय औपचारिकरूपेण स्वनेता रूपेण चितवन्तः। पूर्वमुख्यमन्त्री एमके स्टालिन इत्येषः राज्यपालाय स्वत्यागपत्रं समर्पितवान्। केरल राज्ये कांग्रेस नेतृत्वे यूडीएफ दलसमूहः सर्वकार निर्माणाय अनौपचारिक चर्चां कुर्वन्नस्ति। केरलस्य चत्वारिंशदधिकैकशत विधानसभाक्षेत्रेषु द्व्यधिकैकशत क्षेत्रेषु अद्भुतं विजयं प्राप्य कांग्रेस नेतृत्वे यूडीएफ दलसमूहः विधायकदलस्य सभायाः अनन्तरं मन्त्रिमण्डलस्य निर्माणार्थं राज्यपालेन सह मेलनं करिष्यति। भाजपेति दलेन दलस्य वरिष्ठ नेता केन्द्रीय मन्त्री च अमितशाहः पश्चिम बंगाल राज्ये विधायकानां उपवेशने विधायक दल प्रमुखस्य निर्वाचनाय केन्द्रीय पर्यवेक्षक रूपेण नियुक्तः। ओडिशा राज्यस्य मुख्यमन्त्री मोहन चरण माझी राज्यस्य केन्द्रीय सह पर्यवेक्षक रूपेण नियुक्तः अस्ति। केन्द्रीय मन्त्री जेपी नड्डाः असम राज्ये विधायक दलस्य नेतृत्व निर्वाचनाय केन्द्रीय पर्यवेक्षक रूपेण नियुक्तः अस्ति। सहैव हरियाणा राज्यस्य मुख्यमन्त्री नायब सिंह सैनी राज्यस्य केन्द्रीय सह पर्यवेक्षक रूपेण नियुक्तः अस्ति। एतानि नामानि भाजपा संसदीय केन्द्रीय पर्यवेक्षक मण्डलेन अनुमोदितानि सन्ति। मुख्यमन्त्री सम्राट चौधरी वर्यस्य नेतृत्वे बिहार राज्यस्य मन्त्रिमण्डलस्य मई मासस्य सप्तमे दिनांके महत्वपूर्णः विस्तारः भविष्यति। भाजपेति दलस्य राज्याध्यक्षः संजय सरावगी अवदत् यत् शपथग्रहणसमारोहे प्रधानमन्त्री नरेन्द्रमोदी केन्द्रीयगृहमन्त्री अमितशाह भाजपेति दलस्य अध्यक्षः नितिननवीनः जेडीयू दलस्य अध्यक्षः नीतीशकुमारः एनडीए दलसमूहस्य अन्ये वरिष्ठनेतारोऽपि उपस्थिताः भविष्यन्ति। श्रीसरावगी अवदत् यत् गांधीमैदान इतीदं स्थानं समारोहस्य स्थलरूपेण चितमस्ति।
7 मई को गांधी मैदान में सम्राट चौधरी जी माननीय मुख्यमंत्री जी के मंत्रिमंडल का विस्तार होगा, जिसमें माननीय प्रधानमंत्री आदरणीय नरेंद्र मोदी जी, भारतीय जनता पार्टी के राष्ट्रीय अध्यक्ष आदरणीय नितिन नवीन जी, देश के गृह मंत्री आदरणीय अमित शाह जी, पूर्व मुख्यमंत्री आदरणीय नीतीश कुमार जी, एनडीए के सभी बिहार के जितने भी केंद्रीय मंत्री हैं, सभी लोग उसमें सहभागी होंगे।
कार्यक्रमस्य सज्जता पूर्वमेव प्रचलिता अस्ति। सहैव गांधी मैदान इत्यत्र सार्वजनिक प्रवेशः प्रतिबंधितः अस्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना यूएई देशस्य पुजैराह क्षेत्रोपरि कृताक्रमणस्य दृढतया निन्दा कृता। सामाजिक प्रसार माध्यमे श्रीमोदी अवदत् यत् नागरिकाणां मूल सौकर्याणि लक्ष्यीकृत्य कृताक्रमणात्मकं कार्यम् अस्वीकार्यमिति। सः दृढीकृतवान् यत् भारतं यूएई इत्यनेन सह दृढतया ऐक्यं स्थापयति, सहैव हि संवादस्य कूटनीतेश्च माध्यमेन सर्वासां समस्यानां शान्तियुत समाधानाय स्वसमर्थनं पुनरुद्घाटयति इति। श्रीमोदी अधोरेखितवान् यत् होर्मुज जलसन्ध्याः माध्यमेन सुरक्षितं निर्विघ्नं च नौचालनं क्षेत्रीय शान्त्यर्थं स्थिरतायै वैश्विक ऊर्जा सुरक्षायै च महत्वपूर्णमस्ति। ईरान देशस्य ड्रोन आक्रमणानन्तरं यूएई देशस्य पुजैराह पेट्रोलियम इंडस्ट्रीज जोन इत्यत्र अग्निप्रकोपात् ह्यः त्रयः भारतीयाः नागरिकाः व्रणिताः अभवन्। पूर्वं विदेशमन्त्रालयः अपि यूएई इत्यत्र आक्रमणस्य निन्दाम् अकरोत् तत् अस्वीकार्यञ्च इति अवोचत्। मन्त्रालयः एकस्मिन् वक्तव्ये शत्रुतायाः तत्क्षणसमाप्तेः आवाहनम् अकरोत्। नागरिकसंरचनायाः नाशेन सह निष्पापनागरिकाणाञ्च लक्ष्यीकरणस्य निन्दाम् अकरोत्। अमेरिका ईरान देशौ गल्फक्षेत्रे नूतनानि आक्रमणानि अकुरुताम्, येन होर्मुज जलसन्ध्याः नियन्त्रण विषये संकटः वर्धितः, फलतः संघर्षः जलसन्ध्याः परं प्रसृतोऽस्ति। भाजपेति दलस्य सांसदः राघवचड्ढा, अशोकमित्तलः, सन्दीपपाठकः, राजेन्द्रगुप्तः च अद्य राष्ट्रपतिभवने राष्ट्रपतिना द्रौपदी मुर्मू वर्यया सह मिलित्वा पंजाबराज्ये आपनेतृत्वे प्रशासनेन राज्यतन्त्रस्य कथितस्य दुरुपयोगस्य विषये चिन्तां प्रकटितवन्तः। वार्ताहरैः सह वार्तालापं कुर्वन् राघवचड्ढा इत्यनेन आपनेतृत्वे पंजाबसर्वकारः राज्यतन्त्रस्य उपयोगेन राज्यसभायाः सदस्यान् लक्ष्यीकरोति इति आरोपितवान्।
मैं सीधे तौर पर आम आदमी पार्टी को कहना चाहता हूं कि आप ये विजिलेंस, ये पोल्यूशन बोर्ड, ये पंजाब पुलिस का सहारा लेकर जो बदले की भावना से कार्रवाई कर रहे हैं, एक डेंजरस खेल है जिसकी शुरुआत तो आपने कर दी है लेकिन इसका अंत बहुत खराब होने जा रहा है। जब तक हम आपके साथ थे हम तमाम लोग बहुत अच्छे थे, बड़े संस्कारी थे, आज्ञाकारी थे और जैसे ही आपका साथ हमने छोड़ा हम सब लोग भ्रष्टाचारी हो गए।
अत्रांतरे पंजाबराज्यस्य मुख्यमंत्री भगवंत मान इत्येषः अपि आपदलस्य राज्यसभायाः सप्तसदस्यानां भाजपेति दले प्रवेशविषये चर्चार्थं राष्ट्रपतिना द्रौपदी मुर्मू वर्यया सह मिलितवान्। उपवेशनानन्तरं श्रीमानः आपदलस्य सांसदानां विलयनम् असंवैधानिकम् इति उक्तवान्। भारत ऋतु विभागेन आगामि दिनद्वयोः मध्यप्रदेशे, विदर्भे, छत्तीसगढ़े च मेघवृष्ट्या, विद्युत्पतनेन, वायुवेगेन च सह लघुतः मध्यमवृष्टेः पूर्वानुमानं प्रकटितम्। अद्य उत्तरप्रदेश, झारखण्ड, ओडिशा, छत्तीसगढ़, आन्ध्रप्रदेश, मध्यप्रदेश, गांगेय, पश्चिमबंग इत्येतेषां च केषुचित् भागेषु अपि एतादृशेः स्थितेः संभावना विद्यते। आईपीएल क्रिकेट क्रीडायाम् आतिथेय दिल्ली कैपिटल्स दलम् अद्य सायंकाले अरुण जेटली क्रीडांगणे चेन्नई सुपर किंग्स इत्येतत् दलं सम्मुखीकरिष्यति। अद्य सायं सार्ध सप्तवादने क्रीडा आरभ्यते। अवधेयं गतरात्रौ वानखेड़े क्रीडांगणे मुंबई इंडियंस दलेन लखनऊ सुपर जायंट्स इत्येतत् दलं षट् स्तोभैः पराजितम्। अन्ते मुख्य वार्ताः पुनः एकवारम्। विधानसभा निर्वाचनस्य परिणामानां घोषणानन्तरं पश्चिमबंग, तमिलनाडु, केरलं प्रदेशेषु च सर्वकारस्य निर्माणार्थं राजनैतिक क्रियाकलापानि आरभन्ते। भाजपेति दलस्य वरिष्ठः नेता अमितशाहः, पश्चिमबंगालराज्यस्य केन्द्रीयमन्त्री जेपी नड्डाः च असमराज्यस्य केन्द्रीय पर्यवेक्षकत्वेन नियुक्तौ स्तः। बिहारराज्यस्य मन्त्रिमण्डलस्य विस्तारः मई मासस्य सप्तमे दिनांके भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी च अस्मिन् कार्यक्रमे भागं ग्रहीष्यति। प्रधानमन्त्री नरेन्द्रमोदी यूएई इत्यस्य फुजैराह क्षेत्रे आक्रमणस्य निन्दाम् अकरोत् इति वार्ताः।